नमस्सर्वेभ्यः अद्य सिद्धान्तकौमुद्याः कारकप्रकरणे ऊनचत्वारिंशः पाठः नवम्बर् मासस्य एकादशः दिनाङ्कः येनाक्षरसमां नायमधिगम्य महेश्वरान् कृत्स्नं व्याकरणं प्रोक्तुं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तीश्वरिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. We look at the example of the exercises of Shashti Vibhakti. Shashti Vibhakti hai abhyasaha. Kasmina arthe Shashti Vibhakti bhavati kena sutrena shishnaha. Ashtadhyayaha rachayita acharyaha paninihi. Ashtadhyayaha ityarta Shashti. Kasmina arthe. Anybody else? कर्मणि षष्ठि अष्टाध्याय्याः रैट् कर्तृकर्मणोः कृति इत्यनेन कर्मणि षष्ठी भवति. पाणिनिः अष्टाध्यायीं रचयति, अष्टाध्याय्याः रचयिताम्. सो अष्टाध्यायी कर्म रचनस्य रचनक्रियायाः कर्म, अतः कर्मणि षष्ठी कर्तृकर्मणोः कृति इति सूत्रेण. Okay, so the next one. Rajyah putraha rathena gacchati. Shashti sheshe. So, सत्यं जन्यजनकभावः सम्बन्धः सम्बन्धे सम्बन्धमन्त्रे षष्ठी विभक्तिः. अत्र जन्यजनकभावः सम्बन्धः राजा जनकः पुत्रः जन्यः सशेषे षष्ठी षष्टीशेषे इति सूत्रेण. स्मरामि प्रियामुखस्य षष्टीशेषे शेषे षष्ठी, किन्तु अधीरर्थदयेषां कर्मणि इति विशेषसूत्रेण. Sheshe eva, kintu kadachit, there is a vishesha vivaksha to prevent the samasa. In this particular place, there is no samasa, but still, adhigarthadayesham karmani ittinena, karmani sheshe, karmanaha avivakshayam sheshe shashti bhavati. Sukhantava bhuyat. Ashishinathaha iti nathadhato reva bhavati. It's only for nathadhaha. सर्पिषः नाथनं, माणवकस्य नाथनम् इत्यादि. आशिषि वट् चतुर्थी च आशिषि इत्यर्थे उपपदषष्ठी, इट् इस् गिवन् षष्ठी बिकास् इट् इस् असोसियेटेड् वित् चतुर्थी च आशिषि आयुष्यमद्रभद्रकुशलसुखार्थहितैः. देर् इस् अ टैपिङ्ग् एरर्, इट् इस् सुखार्थहितैः. सो आशिषि सुखार्थे, सुखशब्दः अस्ति इत्यतः षष्ठी विभक्तिः. ओके, ऐ थिङ्क् इवन् पद्मा मम्मी मेड् द सेम् थिङ्ग् हियर्. सो आशिषि नाथः इस् ओन्लि फार् द नाथधातुः आशिषि, किन्तु नाथधातोरेव भवति. सो इफ् दिस् एनी अदर् थिङ्ग् इट् हेस् टु बि थ्रू दिस्. भोजनस्य जानीते तस्मिन् अर्थे षष्ठी योहिदर्थस्य करणे इति सूत्रं. षष्ठी हेतुप्रयोगे, षष्ठी हेतुप्रयोगे विल् अप्लै ओन्लि इफ् देर् इस् द प्रयोग आफ् वर्ड्स् लैक् हेतु. ओके, हेतुप्रयोगे. सो भोजनस्य हेतोः इति यदि अस्ति तर्हि एव तत्र तेन सूत्रेण षष्ठी भवितुम् अर्हति. ओके, सो इट् इस् इफ् द वर्ड्स् लैक् हेतु, निमित्त आर् कारण आर् यूस्ड्, अदर्वैस् इट् हेस् टु बि तृतीया बै हेतौ. करणे, करणस्य अविवक्षायां षष्ठी भवति. करणे शेषे अर्थात् करणस्य अविवक्षायां षष्ठी न्योविदर्थस्य करणे. अत्र ज्ञाधातोः प्रवृत्तिः इत्यर्थः. भोजनस्य हेतोः प्रवर्तते, भोजनेन, भोजनं करणं, भोजनेन प्रवर्तते इत्यर्थः. करणस्य अविवक्षायां षष्ठी भवति. இதம் சதா தவத் சுனனியம் சத்வத்தேன கமனியம் இதி. தவஸ்மரணீயம் ஸ்மரணீயம் இதி அந்யர் பிரத்யாக கிருத்யா. So it is a krit, but a special also a kritya pratyaya, because it is a kritya, the karta, kartuhu, vikalpena shashti bhavati, kartari shashti, and, I have made a mistake, it's kritya nam kartari va. So, kritya nam kartari va. I don't know what I was thinking essentially. The sutra is actually Krityanam Kartariva. Kartari Vikalpena Shashti Bhavati Ityanena Shashti Bhavati. Tvaya Smaraniyam Ityarthaha Yushmat Shabda Padarthaha Karta Vikalpena Shashti Bhavati. Okay, it is not Kartar Karmanav Kriti, it is Krityanam Kartariva. Divyati Yudhishthiro Rajyasya திவஸ்ததத்தஸ்ய இதி சூத்ரம் கஸ்மின் அர்த்தே ஷஷ்டி கர்மணி ஷஷ்டி. சத்யம் இட் இஸ் நாட் சேஷ ஷஷ்டி. கர்மணஹ ஏவ ஷஷ்டி விபக்தி, கர்மத்வே விவக்ஷிதே ஏவ ஷஷ்டி விபக்தி, கர்மணி ஷஷ்டி திவஸ்ததத்தஸ்ய இதி சூத்ரேண. வி சா தட் பிகாஸ் ஆஃப் த வியாக்யான வியாக்யான பலாத் அத்ர சேஷே இதி நானு வர்த்ததே கர்மணி ஷஷ்டி. அதிகத ஏஷாம் கர்மணி இத்யதஹ கர்மணி இதி அனுவர்த்ததே. அத்புதேயம் சிருஷ்டிஹி பகவதஹ. கர்த்ருகர்மணோ ஸ்ருதி. கர்த்ருவா கர்மணஹ வா ஷஷ்டி. கஸ்மின் அர்த்தே கர்த்ருர்த்தே ஷஷ்டி பகவதி. இதுவே பகவான் கர்த்தா சிருஷ்டிஹி தஸ்ய பகவதஹ ஸ்ருஷ்டிஹி இத்யத்ர பகவான் கர்த்தா கர்த்தரி ஷஷ்டி கர்த்ருகர்மணோ ஸ்ருதி இதி சூத்ரேண. மம வ்யாகரணஸ்ய அத்யயனம் தசவர்ஷேப்யஹ பிரசலதி. Any other options? That is always there, but will anything else work is the question. Is there any other possibility? Shashti Sheshe, yes, I think I mean you can finish the Shashti Prakarana with Shashti Sheshe in almost all cases. But is there something else which we can have? No, it's not very difficult. Okay, what is it associated with? Mama? வியாக்கரணஸ்ய. வாட் இஸ் இட் அசோசியேட்டட் வித்? கிருத்தோர்த்த பிரயோகே வில் நாட் அப்ளை, பிகாஸ் ஐ மீன் தெர் இஸ் நோ கிருத்தோர்த்தம். கிருத்தோர்த்தா இஸ் டைம்ஸ், த நம்பர் ஆஃப் டைம்ஸ், சே ஒன்ஸ் ஆர் ட்வைஸ். ஸோ தெர் இஸ் நோ கிருத்தோர்த்த ஹியர், ஸோ தட் வில் நாட் அப்ளை. ஸோ விச் வேர்ட் இன் த சென்டென்ஸ் இஸ் த ஷஷ்டி ரிலேட்டட் டு? ஷஷ்டி இஸ் ஆல்வேஸ் ரிலேட்டட் டு சம்திங். So, Mama Vyakaranasya, what are they related to? Adhyayana or Dasavarsha or Prachalati? Adhyayana, right? So, Adhyayanam Dasavarshebhyah Prachalati. So, that is a separate thing. Mama Adhyayanam Vyakaranasya Adhyayanam. So, what is the relation between me and Adhyayana? What kind of a word is Adhyayana? Adhyayana is a kridanta. Okay. So, adhi and in. Adhite ityasya lit pratyaha adhyayanam iti bhavati. It is the act of studying. Okay. So, adhyayanam. Adhyayanam ityatra aham karta vyakaranam karma. I do the study and the object of study is the vyakarana. So, aham iti karta. So, whenever you have a kridanta, obvious sutra is karta karmano kriti. Okay. So, can we have Kartu Karmana Shruti? Kartuhu Shashti Bhavati, Karmanaha Shashti Bhavati. Is that right or wrong? Okay, so there is a problem. It says Ubhaya Praptau Karmani. If there is a case, Ekasmin Kriti, Yadi Ubhayoho Kartaho Karmanascha Praptihi, Tarhi Karmanaha Eva Bhavati. Ascharyam Gavam Doha Agopena. So if in a single Siddhanta you have a prasakti for both Kartru and Karma, getting Shashti, then it will be only for the Karma and not for the Karta. Okay. So, no, here it is only one karma, pradhana karma, shishyam, bhavati iti satyam, vyakaranasya adhyayanam iti bhavet, katham mama vyakaranasya adhyayanam. Is it possible to justify this? Sudaha panini mate. No, maya vyakaranasya adhyayanam iti bhavet. Okay, karmanaha eva shashti bhavet. Kinto, martikam asti tatra, there is the sheshe vibhasha, the vartika. So that vartika is after that stri pratyaya. What is that vartika? Just a second. Sri Pratyayoho, Akasarayoho, Nayam Niyamaha. So the Vatika is rule that is Ubhaya Prapto Karmani does not apply to the A and Aka of Sri Pratyaya. Then he says Sheshe Vibhasha. For the rest it is optional. So what is the Shesha? Again there is a controversy. Some people say the Shesha is for the rest of Sri Pratyayas there is no Niyama. And there is a Paksha which says for the rest of Krut Pratyayas. Samanyena Vibhasha. So for the rest of Krut Pratyayas, it is optional. So that is why Keshit Avisheshena Vibhasha Michanti Shabdanam Anushasanam Acharyena Acharyasyava Acharyasya Shabdanam Anushasanam Athava Acharyena Shabdanam Anushasanam. So Shabdanam Anushasanam Shabdaha Karma Karmanaha Bhavatyeva Kartuhu Bhavativanava Ityukte Vikalpena Niyamahataha Bhavitumarhati Athavana. So this shasti can be justified only if we resort to that paksha. Panini mate tu na bhavati. Panini mate kartuka ubhaya praptav karmani itenena karmanaha eva shasti. So panini does not intend this. So maya vyakaranasya adhyayanam itteva bhavet. Kintu vartikam yadi ashyete tatrapi yadi avisheshena vibhasham icchati vartikakaraha iti pakshaha. So that is again is not clarified. Does he mean Vibhasha only for three pratyayas or for any krit? So that avisheshena vibhasha iti mate kartarapi shashti siddhyati. Okay. Ayam vidvan jananam bahumataha. This is pretty easy. Tasya vartamane. It is Uttrena. Kasmin Arthe Shashti Vibhakti. Tasya cha Vartamane. Karta. Kartari Shashti. Tasya cha Vartamane. Vartamana Artha Tasya Prayoga. Mati Buddhi Puja Arthe Kshishaitanena. Ayam Vartamane Kta Prateha. Samanyena Bhute Ktaha Bhavati. Bhute Karmani Kta Prateha. Tadatu nalokavya nishtha atyuktatvatu shashti na bhavati vartamane edikta pratyaha janaihi bahu manyate itjate vartamane edikta pratyaha tadakartuhu shashti bhavati tasya heto ragamanam. So this is what So, Sarvanamna Srutiyacha Ittisthi. Shashti Heta Prayoge Sarvanamna Srutiyacha. So, Sarvanamna Srutiyacha. Sarvanamnaha Prayoge. Kasya Adi Sarvanamnaha Prayoge. Tritiya Shashti. So, there can be either Tritiya or Shashti according to the Sutrakara. Patika Saramate to Kimbhavati. What is the Vartika Sara's take on this? So दिस इज एक्चुअली सर्वनाम्न तृतीया च तृतीया षष्ठी च भवतः सर्वनाम्न प्रयोगे आई मीन षष्ठी हेतु प्रयोगे बट व्हाट इज द वाचिककार से रिगार्डिंग दिस He does not even say except Prathamadi. Yeah. He says, Nimitta Pariyaya Prayoge Sarvasam Prayadarshanam. Almost all Vibhaktis. Yadi Sarvanamunaha Prayogaha Sarhi Sarvaha Vibhaktayaha Prayoktum Shakyaha. Yadi Sarvanama Nasti Tada Prathamadvitiyam Vihaya Anyaha Vibhaktayaha Upayoktum Shakyaha. Yeah. So if it is Sarvanama, you can use Prathama also, Dviti also. Kim Nimit, Kim Hetu, Agamanam, etc. Yadi सर्वनाम्नः प्रयोगः नास्ति फॉर एग्जांपल अन्नस्य इत्यादि अस्ति अन्नेन हेतुना आगमनम् अन्नाय हेतो हेतवे इत्यादि सो यू कैन नॉट यूज प्रथम एंड द्वितीय इफ इट इज अदर वर्ड इफ इट इज सर्वनाम वी कैन यूज एनी विभक्ति ओके सो दैट इज द वार्तिककार इकोने इदं रामस्य शयितम् इति भरतं दर्शयामास गुहः कर्तरिक्तः इज इट कर्तरि मति बुद्धि पूजार्थेभ्यः एव कर्तरिक्तः भवति सो इट इज व्हाट इज गुह इंटेंडिंग इज दिस इज वेयर राम स्लेप्ट सो अधिकरणवासिनश्च इट इज द अधिकरण इदं रामस्य शयितम् अधिकरणे तप्रत्ययः अस्मिन् अत्र रामः अशेत इत्यर्थे अधिकरणार्थे तप्रत्ययः अधिकरणवाचिनश्च इत्यनेन कर्तरि षष्ठी भवति वै हेव् अ मिस् मिस्टेक् ऐ थिंक ऐ एम सॉरी दिस इज नॉट द सिचुवर्तमाने दिस इज अधिकरणवाचिनश्च ऐ थिंक ऐ मेड दिस लाइट सम टाइम लेट नाइट आई एम रियली सॉरी देयर आर मेनी typing errors in the slide. I will correct this and send it, so please use it. So it is adhikarana vachinascha ittanena atra kartari shashti, not sasya javattamani. Himalayasya dakshinataha sindhor uttarayana bharatam. There are two shashti bhaktis here, Himalayasya and Sindhoho. सूत्रेण षष्ठी षष्ठी तदर्थ प्रत्ययेन फॉर विच वन फॉर बोट फॉर फॉर वन दक्षिणतः दक्षिणतः इति अतः प्रत्ययान्तः हिमालयस्य दक्षिणतः इत्यतः षष्ठतसर्थ प्रत्ययेन इत्यनेन उपपदषष्ठी इति षष्ठी सम्बन्धषष्ठी बिकास् आफ् द प्रेसेन्स् आफ् अतसर्थ प्रत्यय सिन्धोरुत्तरेण एनपा द्वितीया बट् एनपा द्वितीया सेस् एनपा द्वितीया एनबन्तेन द्वितीया स्यात् सो हौ डु वि हाव् षष्ठी Yeah, this is in Yoga Vibhaga according to Dikshitar. Okay, so Dikshita namate, enapa iti yoga ha vibhajyate, tena enavantena yoga shashti syat, dhitiya api bhavati. Yoga Vibhagam ashrityaiva atra shashti samarthayitum shakyate. So otherwise we cannot substantiate a shashti here. So enapa iti yoga vibhagi vatha yadi angi kriyate, tarhi shashti yuhaktihi samarthayitum shakyate. Nasti sadrisho ramasya. तुल्यार्थे रतलोपमाभ्याम् तुल्यार्थैः सो देयर् इस् नो क्वेश्चन् अबौट् इट् सदृश इस् डेफिनेट्लि तुल्यार्थ बै इट् सेल्फ् सो वी केन् हाव् तृतीया आर् षष्ठी रामेण सदृशः आर् रामस्य सदृशः शिवरात्रेः एकादश कृत्वः रुद्राभिषेकः सो एकादश कृत्वः इस् इलेवेन् टैम्स् सो इलेवेन् रुद्राभिषेकः फोर् इलेवेन् टैम्स् आन् शिवरात्रि सो कृत्वोर्थप्रयोगे काले अधिकरणे ओके सो द अधिकरण इस् द काल सो यु केन् हाव् नैत्यानां घातुको हरिः जासि निप्रहण Not a krath of visham. No, there, if you have the hanadhatu, it has to be नी प्र ओके इधर नी और प्र और बोट सो देयर इज नॉट हियर घातुक इज जस्ट नो उक प्रत्यय घातुक ओके सो टू से इट इज उक द हन धातु एंड उक इज द प्रत्यय घातुक हरि सो न लोकाव्ये निष्ठा न ल उ उक उक प्रत्ययं तत्वात् कर्तकर्मणो कृति इत्यनेन षष्ठी प्राप्यते सो देयर इज षष्ठी प्रसक्ति वै कर्तकर्मणो कृति बट नो बिकॉज दैत्य इज द कर्म ओके इत्यानां घातुकः हरिः दैत्यान् घातयति इत्यर्थे कर्म षष्ठी षष्ठ्यां प्राप्तायां न लोकावे निष्ठा खलकर्तृणाम् इत्यनेन निषिध्यते अतः दैत्यान् घातुको हरिः इति भवेत् करेक्ट सो कर्मणि विवक्षिते दैत्यान् घातुको हरिः इति भवेत् Can we justify this prayoga? Ayam prayoga ha sadhurva nava. Karmani shashti na bhavati. Karmani shashti asadhu. Because it has to be daityan bhatuko harihi. Kintu karmani avivakshite sheshe shashti ittenena shashti vibhakti hi bhavitu marhati. So the prayoga is okay. Daityanam ghatuko harihi iti bhavitu marhati kintu karmani vivakshite na. Not when karma is intended. Only when karmana avivakshayam sheshe shashti bhavitu marhati. Because the Katrakarmano Kruti is prevented by the Naloka Vye Nishtha Khalatra Sunam. Okay. So I think that's it. So it was the exercise on Shashti Vibhakti. After that we started with Saptami. Saptami Adhikaranecha Ityanena. Adhikarane Saptami Vibhakti Bhavati. आधारः अधिकरणम् इति अधिकरणसंज्ञाविधायकं सूत्रम् आधारः अधिकरणसंज्ञकः भवति कर्तृकर्मद्वारा क्रियायाः आधारः कस्य आधारः द सब्स्ट्रेटम् फार् वर्ड् फार् एक्शन् नाट् डैरेक्ट्लि बट् थ्रू द कर्ता और् थ्रू द कर्म कर्तुः द्वारा कर्मणः द्वारा वा क्रियायाः आधारः अधिकरणसंज्ञकः भवति आधारः त्रिप्रकारकः इत्यपि दृष्टम् औपश्लेषिकः वैशेषिकः अभिव्यापकः सो आधारः त्रेधा भवितुम् अर्हति औपश्लेषिकः संयोगादिसम्बन्धद्वारा सो इफ् द आधार इस् थ्रू अ सम्बन्ध लैक् संयोग आर् सममाय देन् वि काल् इट् आस् औपश्लेषिक आधार ओके सो कटे अस्ते स्थाल्यां पचति इत्यादि कटे आस्ते इत्यत्र चैत्रः कटे आस्ते इत्युक्ते कर्ता कर्तृद्वारा क्रियायाः आश्रयः संयोगसम्बन्धः कर्तुः कतश्चित् स्थाल्यां पचति तण्डुलान् स्थाल्यां पचति कर्मद्वारा क्रियायाः आधारः कर्मणः आधारस्य च संयोगसम्बन्धः स्थाल्यां पचति इत्यादि वैषयिकः आधारः इच्छा ज्ञान इत्यादिना विषये विषयतासम्बन्धेन मोक्षे इच्छा अस्ति इच्छा अस्ति इच्छायाः आशयः इच्छा कर्त्रि सो विषयतासम्बन्धेन बिकास् आफ् द आधार द मोक्ष अण्ड् इच्छा सो द सम्बन्ध इस् विषयता इच्छा विषयः मोक्षः अतः वैषयिकः आधारः अभिव्यापकः आधारः सो सर्वात्मना व्याप्नोति इति अभिव्यापकः सर्वस्मिन् आत्मा अस्ति आत्मा विभुः ओम्निप्रेजेन्स् सो इट् पर्वेड्स् एव्रिथिङ्ग् इत्यर्थे अभिव्यापकः आधारः सो दीस् आर् द त्री कैण्ड्स् आफ़् आधार सो देर् इस् अ स्लैट् डिफरेन्स् आन् वाट् एक्साक्ट्लि इस् औपश्लेषिक आधार विच् वि सा फ्रम् कमेण्टरि सो नागेशभट्ट डिफर्स् इन् दिस् दीक्षितमते तु अयमेव उपश्लेषिकः आधारः कटे आस्ते स्थाल्यां पचति इत्यादि चकारात् दूरान्तिकार्थेभ्योऽपि सप्तमी सो दूरान्तिकार्थैः षष्ठी पूर्वतसूत्रेण त्रिविभक्ति रैट् दूरान्तिकार्थे षष्ठ्युन्नतरस्यां षष्ठी पञ्चमी तृतीया सो इन् अडिशन् दिस् सूत्र गिव्स् सप्तमी सो देर् केन् बि फोर् विभक्ति वनात् दूरे सप्तमी विभक्ति दूरं द्वितीया तृतीया पञ्चमी सारी इट् इस् नाट् षष्ठी इट् इस् द्वितीया तृतीया पंचमी। अग्रे आस्तिकमस्ति तस्य इन्विषयस्य कर्मणि उपसंख्यानम् सप्तम्यधिकरणे च इति सूत्रमस्ति। तत्रैव सप्तमी विभक्तौ तस्य इन्विषयस्य कर्मणि उपसंख्यानम्। इन् प्रत्ययान्तः यः क्त प्रत्ययान्तः तस्य कर्मणि सप्तमी विभक्तिः स्यात्। सो देर् इस् सप्तमी फार् कर्म वेन् क्त प्रत्ययान्तः। इन् प्रत्ययान्तः यः क्त प्रत्ययान्तः देर् आर् टु प्रत्ययस् धातोः क्त प्रत्ययः भवति। क्त प्रत्ययान्तस्य इन् प्रत्ययः क्त इस् एकृत् प्रत्यय आन् दट् देर् इस् अ कथित प्रत्यय इन् ओके। सो तदा कर्मणि सप्तमी विभक्तिः भवति। अधीति व्याकरणे इत्यस्ति व्याकरणम् अधीतम् इत्यर्थे अधीत इति प्रत्ययः यः येन व्याकरणम् अधीतम् इत्यर्थे। सो कर्तरि पुनः इन् प्रत्ययः। सो द वन् हु हेज़् स्टडीड् व्याकरण इत्यर्थः अधीति इति शब्दस्य। तत्र कर्म व्याकरणं कर्मणः सप्तमीविभक्तिः भवति अधीति व्याकरणे। अधीतम् अनेन इति विग्रहे इष्टादिभ्यश्च इति कर्तरि इनिः अनेन अधीतं किम् अधीतं व्याकरणम् अधीतं। सो अधीत इति क्त प्रत्ययः देर् इस् ओरिजिनल् अ क्त प्रत्यय विच् गेट्स् द इन् प्रत्यय तस्य इन् विषयस्य कर्मणि उपसंख्यानम्। सो द कर्म आफ् दट् क्त प्रत्ययान्त इस् व्याकरण। सो आन् फार् दट् वि हेव् सप्तमी विभक्ति कर्तरीणिः इति व्याख्याने। भावक्तान्तात् अधीतशब्दात् कर्तरि इनि प्रत्यये कृते अधीति इति अस्य अधीतवान् इत्यर्थः पर्यवस्यति। किम् अधीतवान् इति कर्मविशेषजिज्ञासायां व्याकरणम् अध्ययने कर्मत्वेन अन्वेति। तच्च व्याकरणकर्मत्वं न केनापि अधीतम् इति कृतपूर्वीकटम् इतिवत् द्वितीयायां प्राप्तायाम् अनेन सप्तमी इति भावः। सो दिस् इस् अगेन् अ टेक्निकल् क्वश्चन्। इफ् यु से अधीत इस् karma, right? If it is generally, if you say adhitam, vyakaranam adhitam, ityukte adhitam iti karmani kta pratyayah, right? So you say it is karmarthe kta pratyayah. So on that, if you add an in pratyaya, it will be one who has studied it, okay? But the problem is, if you do a kta pratyaya in karmartha, karma kta pratyayena abhihitam, the karma will already be given by the kta pratyaya. Then it will not leave. Karmani vibhakti hi na bhavati abhihitatvat. For all the entire vibhakti adhikara we have anabhihite. Atra api anabhihite karmani saptami vibhakti bhavitum arhati. Karma abhihitam ityanena karanena saptami nasyat iti prashnaha. So the same thing which we saw in Krita Purvi Katam. Okay, where if the karma is abhihita, you cannot have the katam, dhitiya vibhakti there. So for all these, they use a process where they say, samanyena when you are doing the kartapratyaya karmanah vivaksha na bhavati, there is no vivaksha of the karma, so we treat it as if there is no karma. Bhavarthe kartapratyah, that is what he says. Bhavaktantat adhita shabdat, so adhita is just studied okay, just means a study. Kena adhitam kaschit, so tena adhitam, adhitam anena iti vigrahe, ishtadibhyashta iti kartari inihi. So the inhi is kartratva, the karta is abhihita, and the karma is anabhihita, because the pratyaya is bhave pratyaya. The pratyaya is added in bhave, because karma is not intended to be conveyed at that stage. Okay. Now, karmanaha anabhihitatva, bhavaktantat adhita shabdat, kartari ini pratyaya krute, adhiti ityasya, adhitavan ityasya pratyaya. पर्यवस्यति इट् मीन्स् द पर्सन् हु हेज़् स्टडीड्। किम् अधीतवान् इति कर्मविशेषजिज्ञासायां नौ द क्वश्चन् अरैसस् वाट् डिड् हि स्टडी। सो इदानीं कर्मविशेषजिज्ञासायां वेन् देर् इस् अ डिसैर् टु नो वाट् इस् द कर्म व्याकरणम् अध्ययने कर्मत्वेन अन्वेति। सो व्याकरण इस् द कर्म फार् अध्ययन, तच्च व्याकरणकर्मत्वं न केनापि अभिहितम्, इट् हेज़् नाट् बीन् टोल्ड् बै एनी अदर् पार्टिकल्। कृतपूर्वीकटम् इतिवत् द्वितीयायां प्राप्तायां, सो देर् शुड् हेव् बीन् द्वितीया, द्वितीयायां प्राप्तायाम् अनेन सप्तमी, सो बै दिस् यु विल् हेव् सप्तमी विभक्ति। ओके, सो द सेम् वास् द प्रोब्लम् वित् कृतपूर्वीकटम्। सो हौ डु वि हेव् ए द्वितीया इन् कटम्? इस् कृत इस् कर्मणि क्त प्रत्ययान्त, कर्म अभीतम् इत्यनेन कटः इत्येव भवेत्, कटम् इति द्वितीया न भवति इत्युक्त्वा तत्रापि आदौ सामान्येन भावे क्त
कृतः कृतः इत्येव कृतं कृतः पूर्वम् इति अन्वयः कृतपूर्वी इति भवति अनन्तरं किम् इति इति विवक्षायाम् अथवा जिज्ञासायाम् सो द कर्म द क्वेश्चन् आफ् द कर्म अरैसेस् ओन्ली लेटर् इनिशियली वी डोन्ट् टेक् अ कर्म इन् टु कन्सिडरेशन् वी डू अ भावार्थप्रत्यय देन् अ कर्तृर्थप्रत्यय आन् द सेम् थिङ्ग् सो यू हेव् अधीति आफ्टर् दट् वी आड् द कर्म नौ कर्मणः अनभीतत्वात् द्वितीयायां प्राप्तायाम् अनेन सप्तमी विभक्तिः अग्रिमं वार्तिकमस्ति साध्वसाधु प्रयोगे च इट् इस् नाट् एन् अकर्मक वर्स् अध्ययन इस् सकर्मक किमधीते इट् इस् एक्चुलि सकर्मक इट् केन् हाव् कर्म अकर्मक हेस् डिफरेण्ट् डेफिनेशन्स् देर् इस् अ कारिकर् सो यस्य कर्म न सम्भवति अविवक्षितकर्म सो कर्म अविवक्षितम् अकर्मक केन् आल्सो बि एन् अविवक्षितकर्म कर्म इस् नाट् विवक्षित That is what he says. So, karmani avivakshite. When there is no vivaksha of karma, that can also be treated as an akarmaka. It is. That is the whole thing. It is not incident. At this stage when you are saying adhitam, okay, when you are adding the kratpratyaya to adhyayana, you have no intention of conveying the karma. Okay, karma avivakshitam. सो कर्मणि प्रत्ययः भवितुम् अर्हति कर्म अविवक्षितम् इत्यतः एव भावे प्रत्ययः भवति ओके सो इट् इस् जस्ट् द एक्ट् आफ् स्टडीङ्ग् सो स्टडीड् इत्यर्थः भूते भावे कर्तप्रत्ययः भवति सो केन अनेन अधीतम् इत्यर्थे कर्तरि इनि प्रत्ययः भवति यु हेव् अधीति ओके सो इन् अधीति देर् इस् नो क्वश्चन् आफ् कर्म एट् आल् सो इट् इस् जस्ट् पर्सन् हु हेस् केरीड् औट् द एक्ट् आफ् अध्ययन So then, if there is a vivaksha of karma, at a later stage, you think karma is intended, then there is nothing. As far as you have the prakriya, karma has not been conveyed, because at the stage of adding the pratyaya, was not vivakshita. So it is anabhita, anabhita-tvata, tatprayita, vibhakti, bhavitum arhati. Obviously, it is a purely theoretical device to justify such prayogas. Okay? So, if you have an intention of karming karma right at the beginning, you cannot use this. And this prayoga will again be wrong. Okay. So, this is obviously a device, a theoretical device to justify the prayogas. Yes, it has to be because karaka is the working of the mind. It does not happen just with words. It happens with the mind. So, obviously, if you use the words like psychologist with reference to that, yes. Because vivaksha is the governing factor in karaka. Okay, it is all vivaksha, what is intended to be conveyed. So if you don't have that, if you don't have the human factor, you cannot have the karaka itself. So, yes. Right. You can also take it the reverse. You can say like if you study and understand the karakas, you are qualified to be a psychologist. You can understand how the mind works. Sadhu sadhu prayoge cha iti agrimam vartikam. Very simple. Sadhu asadhu prayoge. When you use the words sadhu and asadhu, the vishaya would be ayam saptami. Sadhu krishnaha matari. Matari sadhu. Matuhu hitakari. Ityarthaha. So, asadhu matule, for his matula, for his uncle, which is like Kamsa, asadhu nama ahitakari. So, he is hitakari for his mother and ahitakari. So, shashtim badhitva atra saptami vibhakti. Ubhayatra shesha shashtya pavadaha. So, in both cases, shesha shashti iti shashti vibhakto praptayam tasya pavadatvena sadhu asadhu prayome. When you use the word sadhu and asadhu, there will be saptami vibhakti. Sadhuriti. व्याख्याने हितकारि इत्यर्थः असाधु इत्यस्य अहितकारि इत्यर्थः सो देन् देर् इस् वन् थिङ्ग् टु बि नोटेड् इन् द व्याख्यान आफ्टर् दट् असाधुरिति अहितकारि इत्यर्थः उभयत्र शेषषष्ठ्यभवादः साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः इत्यैव सिद्धे इह साधुग्रहणम् अनर्थार्थम् सो देर् इस् अ सूत्र साधुनिपुणाभ्याम् अर्चायां सप्तमी अप्रतेः Archayam, if worship or respect is intended, there is saptami. So this is sadva sadhu prayoge. This is because anarchartham, even when it does not intend any archa or worship or respect. Yaha sadhu grahanam anarchartham. यथा साधु भृत्यः राजनी. So, the Vritya is Hitakari for the Raja. Iha Tattva Kathane Tatparyam. It is only stating a fact. If there is respect to be conveyed by that, we use the other sutra. Sadhu Nipunabhyam Ityatra Sadhu Grahanasya Prayojanam Vakshyate. So, again, when we see the sutra, this will be clear. So, now it is just when we use the word Sadhu and Asadhu, there is Saptami Vibhakti. Okay. I'll stop here and we'll continue tomorrow. Any questions? Yes, this is a Upapada Saptami. It's for with the presence of Sadhu and Asadhu, right. So it's given all the Vatikas together because it occurs with Saptam Adhikaranecha. So it's a Vibhakti Vatika connected with the Vibhakti. Mitraya Namaskutya Tadukti Paribhavya Cha Vaiyakarana Siddhanta Kaumudiyam Virachyate.